सर्वेषां स्वागतं ध्येयमन्त्रेण वर्गम् आरम्भं कुर्मः अस्तु सन्ध्या भगिनि
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानम् आहुतं मन्ये वन्दे संस्कृतमातरम् हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम् हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनी. गतवर्गे वयं तृतीयाविभक्तिरूपम् आरम्भं कृतवन्तः खलु. एकवारं पठामः. विभक्तिवल्लर्यां कस्मिन् पुटे एकनिमिषम्. एतत् सर्वं कृतवन्तः वयं. अस्तु, प्रथमं विभक्ति इति वदामः चेत् विषयद्वयम् अस्ति खलु, रूपाणि कानि अपि च कुत्र उपयोगं करणीयम् इति. कुत्र उपयोगं करणीयम् इत्युक्ते प्रथम अस्ति साधनम्. किमपि साधनम् उपयुज्य कार्यं कुर्मः चेत् साधनस्य तृतीयाविभक्तिरूपं भवति. अपि च कार्यं करणसमये, कर्तुं समये भावम् अस्माकं मनसि केन भावेन वयं तत् कार्यं कुर्मः इति चिन्तयित्वा भाववाचकपदानां तृतीयाविभक्तिरूपं भवति. सन्तोषेण, परिश्रमेण, क्रोधेन इत्यादि. प्रश्नः अस्ति वा अत्र इतोपि पर्यन्तम्? न. अस्तु, अग्रे सः इति अग्रिमबिन्दुः अस्ति, परन्तु ततः पूर्वं वयं रूपाणि पश्यामः एकवारम्. पुल्लिङ्गे नपुंसकलिङ्गे एन इति भवति. एन, रामेण, पुस्तकेन, ज्ञानेन, विमानेन, हस्तेन इति एकवचनरूपं. बहुवचनरूपम् ऐः, हस्तैः, पादाभ्यां. द्विवचनं पादाभ्यां, हस्ताभ्यां, नेत्रं नेत्रेण, नेत्राभ्यां. कर्णः कर्णेन, कर्णाभ्याम् इति एन आभ्याम् ऐः, एन आभ्याम् ऐः तृतीयाविभक्तिरूपं पुल्लिङ्गे नपुंसकलिङ्गे. स्त्रीलिङ्गे अपि च अन्य सर्वत्र, इकारान्तपुल्लिङ्गं वा उकारान्तस्त्रीलिङ्गं वा पुल्लिङ्गं वा किमपि भवतु, अपि च नपुंसकलिङ्गे अपि भवतु, आभ्याम् इभिः इति भवति. आभ्याम् इभिः. हरिशब्द इति आगच्छति चेत् न भवति. न, हरिणा, गुरुणा, वारि, वारिणा, मधुना, नकारः श्रूयते एकवचने. अन्य इकारान्तशब्दं मति स्त्रीलिङ्गे, मत्या इति भवति, मत्या स्त्रीलिङ्गे या अस्ति, या इकार अस्ति चेत् या, उकार अस्ति चेत् वा। परन्तु पुल्लिङ्गे उकार अस्ति चेत् अपि न एव, हरिणा गुरुणा इकार वा उकार वा न एव। एवमेव नपुंसकलिङ्गे इकार वा उकार वा न एव। इभ्याम् इभिः, இப்பியாம் இப்பி என்ன அந்த 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 பாக்ஸை மெயில் பண்ணிடுங்க. தேங்க்யூ. ஸோ அத்த சமயத்தம் ஸோ அத்த ஸ்திரீலிங்க அஸ்தி சேத் யா இப்பியாம் இபிஹி, தீர்க அஸ்தி சேத் இபிஹி, ஹ்ரஸ்வ அஸ்தி சேத் இபிஹி. தித்தியா விபக்தி ரூபே तथा नास्ति खलु, ह्रस्व वा दीर्घ वा ई एव। हरीन् हरि शब्द परन्तु हरीन् गुरून्, मति शब्द परन्तु मतीः, धेनु परन्तु धेनुः, तथा नास्ति तृतीयाविभक्तिरूपे, तृतीयाविभक्तिरूपे ह्रस्व अस्ति चेत् ह्रस्व, दीर्घ अस्ति चेत् दीर्घ। मत्या मतिभ्यां मतिभिः, परन्तु गौर्या गौरीभ्यां गौरीभिः। एवमेव धेन्वा उकार अस्ति चेत् वा आगच्छति, धेन्वा धेनुभ्यां धेनुभिः। परन्तु वध्वा वधूभ्यां वधूभिः। नपुंसकलिङ्गे पुल्लिङ्गवत् एव भवति, तृतीया विभक्ति आरभ्य पुल्लिङ्गे यथा भवति तथा एव नपुंसकलिङ्गे अपि भवति। अस्तु, इदानीम् ऋकारान्तपदम्, पित्रा पितृभ्यां पितृभिः, मूलरूपं पितृ, मूलरूपम् अनुसृत्य एव सर्वत्र भवति, अत्रापि तथा एव, पुल्लिङ्गे स्त्रीलिङ्गे सर्वत्र तथा एव भवति। हरि हरिभिः, गुरु गुरुभिः, मति मतिभिः, गौरी गौरीभिः, धेनु धेनुभिः, वधू वधूभिः, मातृ मातृशब्दः मातृभिः, पितृ पितृभिः, कर्तृशब्दः। पूर्वं प्रथमाविभक्ति द्वितीयाविभक्ति अस्ति चेत् कर्तारौ कर्तारः इति भिन्नरूपं भवति, परन्तु तृतीयाविभक्ति आरभ्य एकमेव रूपं, पित्रा पितृभ्यां पितृभिः, कर्त्रा कर्तृभ्यां कर्तृभिः। अवगच्छति वा इतोपि पर्यन्तम्?
आं भगिनि।
अस्तु अस्तु, धन्यवादः। अपि च सर्वनामपदे अपि तथा एव, एन आभ्याम् ऐः, तेन ताभ्यां तैः, नपुंसकलिङ्गे अपि तेन ताभ्यां तैः। ख किं शब्दः, पुल्लिङ्गे केन काभ्यां कैः, केवलं ख इति योजयामः, त इति स्थाने, केन काभ्यां कैः, केन काभ्यां कैः। सर्व शब्द, सर्वेण सर्वाभ्यां सर्वैः, सर्वेण सर्वाभ्यां सर्वैः। अस्तु, भवत् शब्द भवता इति आश्रूयते, भवत् आ भवद्भ्यां भवद्भिः, किमर्थम् इत्युक्ते तकारान्त पुल्लिङ्गपदं, तकारान्त पुल्लिङ्गपदं, भवता भवद्भ्यां भवद्भिः। भवती इति पदं गौरी इव, भवत्या गौर्या गौरीभ्यां भवतीभ्यां गौरीभिः भवतीभिः। So if we know the pattern, it's very simple. एवमेव अस्मत् शब्द मया आवाभ्याम् अस्माभिः एतत् अपि भिन्नरूपम् इट् डजन्ट् फालो द पेटर्न् परन्तु सर्वत्र भिः एव भिः सर्वत्र भिः केवलं पुल्लिङ्गे नपुंसकलिङ्गे अकारान्त अपि च सर्वनामपदमस्ति चेत् ऐः अन्य सर्वत्र भिः 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 सर्वत्र भिः एव प्रश्नः अस्ति वा अत्र न इति मन्ये अस्तु सो इदानीम् अग्रे गच्छामः सः इति वयं पूर्वमेव जानीमः सः योगे तृतीया सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति उदाहरणं पिता पुत्रेण सह गच्छति अथवा पुत्रः पित्रा सह गच्छति इति विपरीतदिशि अपि वक्तुं शक्नुमः चेत् सः इति पदम् उपयोगं कर्तुं शक्नुमः वयम् पुत्रः अपि पित्रा सह गच्छति पिता पुत्रेण सह गच्छति अभ्यासः वाक्यरचनार्थं सहायकानां हेल्पर्स् सहायकानां त्रयाणां शब्दानाम् आधारेण वाक्यानि रचयत उदाहरणं लक्ष्मणः रामः वनम् लक्ष्मणः रामेण सह वनं गतवान् रामः लक्ष्मणेन सह वनं गतवान् इति अर्थे अस्ति अस्तु कुर्मः वा अभ्यासं शारदा भगिनि
आं भगिनि रविः मित्रेण सह नगरं गतवान्
अस्तु वाक्यद्वयं करोतु भगिनि
मित्रं रविणा सह नगरं गतवान्
अस्तु
गोपालः शिवेन सह सम्भाषणं कृतवान् शिवः गोपालेन सह सम्भाषणं कृतवान्
धन्यवादः अग्रे सविता भगिनि
आं भगिनि गोविन्दः गोविन्दः
इति स्त्रीलिङ्गपदं खलु सो अतः या आगच्छति
भवत्या
सम्यक् भवत्या
गोविन्दः भवत्या सह चर्चां कृतवान्
भवती
भवती गोविन्देन सह चर्चा कृतवान्
चर्चां
कृतवान्
भवती इति अस्ति खलु स्त्रीलिङ्ग अतः
कृतवती
सम्यक् चर्चां कृतवती अस्तु सम्यक् अग्रिममपि करोति वा माता धन्यवादः
मातां पुत्रेण
पुत्री इति स्त्रीलिङ्गपदम् अतः या आगच्छ
पुत्र्या सह पुत्र्या सह माता पुत्र्या सह बन्धुगृहं गतवती
सम्यक् गतवती सम्यक् पुत्री
पुत्री मातेन सह बन्धुगृहं गतवती
सो अत्र माता इति मातृशब्दः मातृशब्दः अतः मात्रा इति भवति मात्रा
मात्रा सह बन्धुगृहं गतवती
सम्यक् भगिनि अस्तु सन्ध्या भगिनि
सः भगिन्या सह कलहं करोति
करोति सम्यक् सः भगिनी
भगिनी
तेन
सह कलहं करोति
करोति करोति एव भूतकाल अस्ति चेत् कृतवान् कृतवती इति इति भवति परन्तु वर्तमानकाले करोति एव भगिनी तेन सह कलहं करोति सः भगिन्या सह कलहं करोति सम्यक् अग्रिमम्
सः भवता सह आगतवान् सः भवता सह आगतवान्
सम्यक् आगतवान् सम्यक् अग्रे
भवान् केन सह आगतवान्
सम्यक् भगिनि केन सह भवता सह सर्वे अवगच्छन्ति खलु अवधानं कुर्वन्तु अस्तु अस्तु अग्रे शारदा भगिनि
आं भगिनि राजा सैनिकैः सह युद्धार्थं गतवान्
गतवान् सम्यक् सैनिकैः सह युद्धार्थं गतवान्
सैनिकाः
राजा
डिफ्रेण्ट्
डिफ्रेण्ट् सो इट् बि राज्ञा
राज्ञा
राज्ञा सो या सो इट् विल् बि लैक् दिस् अहं लिखामि एवं भवति राज्ञा अत्र राजन् नकारान्तशब्दः सो आल् द वर्ड्स् एकनिमिषं ध्वनिः आगच्छति अस्तु सो अत्र नकारान्तशब्दः अग्रे पठामः तकारान्तशब्दः इति अस्ति चेत् दे आल् फालो द सेम् पेटर्न् उदाहरणार्थं तकारान्त शब्दः अस्ति भवत् खलु भवत् इति आगच्छति चेत् भवता इति भवति सो अत्र राजन् राज्ञा इति भवति राज्ञा भवता राज्ञा अस्तु राज्ञा सह सैनिकाः
युद्धार्थं गतवन्तः
गतवन्तः सैनिकाः सम्यक् अग्रे भगिनि
गीता सखीभिः सह प्रवासार्थं गतवती
सम्यक् सखीभिः सख्यः कीभिः
सखीभिः
सम्यक्
सख्यः गीताया सह प्रवासार्थं गतवत्यः
परन्तु अत्र गीतया
गीतया
सह प्रवासार्थं गतवत्यः सम्यक् अस्तु अन्य कोऽपि नास्ति खलु तत्र अस्तु पुनः शारदा भगिनि
somebody is joined भगिनि
but you know let them observe भगिनि in the beginning they will not be able to answer धन्यवादः शारदा
वैद्यः अस्वस्थैः सम्भाषणं कृतवान्
कृतवान् अस्वस्थैः सह सम्भाषणं कृतवान्
अस्वस्थः वैद्येन सह सम्भाषणं कृतवन्तः
सम्यक् धन्यवादः सविता भगिनी
आं भगिनि काः भवत्यः आगच्छन्ति
अत्र भवत्यः इति अस्ति चेत् एकवचनं कथं भवति भवति भवती भवती भवत्यौ भवत्यः सो अत्र वाट् इस् द पेटर्न् फार् स्त्रीलिङ्ग or for anything, we take the moola roopam apicha bihi yojaneyam tavateva moola roopam swikritya bihi yojane
bhavati bihi
samyak bhavati bihi
kaha bhavati bihi
saha
kaha bhavati bihi agachanti
saha, you had to add saha also.
Kaha bhavati bihi saha agachanti.
Kaha bhavati bihi saha agachanti. Viparida dishi bhavatyaha
kena saha agachanti.
So kena saha is for kaha. Kaha asti chet kena saha.
Kena saha.
परन्तु अत्र कया इति एकवचनं अत्र बहुवचनम् अस्ति काभिः सम्यक् काभिः भवत्यः
काभिः सह आगच्छन्ति
काभिः सह आगच्छन्ति सम्यक् धन्यवादः नूतनः अम्ब स्वागतम् अम्ब अस्तु मालती अपि अस्ति स्वागतम् अस्तु अग्रे विना इति अस्ति विना विना अपि आगच्छति चेत् वाक्ये तृतीया विभक्ति द्वितीया विभक्ति पञ्चमी विभक्ति अपि भवति धनेन विना कोऽपि न जीवति धनेन विना धनं विना द्वितीया विभक्ति पञ्चमी विभक्ति कथं भवति
धनात्
धनात् विना कोऽपि न जीवति अस्तु अग्रे कैः विना कः किं कर्तुं न शक्नोति किं न करोति किं करोति इति वदत न शक्नोति न करोति करोति उदाहरणं लेखनी लेखन्या विना हरिः लेखितुं न शक्नोति परन्तु वयं किं कुर्मः तृतीया द्वितीया पञ्चमी अभ्यासार्थं तृतीया द्वितीया पञ्चमी अपि कुर्मः वयम् अस्तु सन्ध्या भगिनी
कार्येण विना रामः स्थातुं न शक्नोति कार्यं विना रामः स्थातुं न शक्नोति अथवा कार्यात् विना रामः स्थातुं न शक्नोति
सम्यक् सो अत्र पुल्लिङ्गे नपुंसकलिङ्गे आत् इति भवति आत् स्त्रीलिङ्गे याः अस्तु बहुवचने दन्ताः अस्ति चेत् दन्तैः ऐः भवति स्त्रीलिङ्गे बिः खलु तृतीया विभक्तिरूपं द्वितीया विभक्ति वयं जा अस्तु अग्रे पश्यामः सम्यक् अस्तु अग्रे अम्ब वदति वा
उपनेत्रं विना सः द्रष्टुं न शक्नोति
द्रष्टुं न शक्नोति उपनेत्रं विना सः द्रष्टुं न
शक्नोति
इदानीं तृतीया विभक्तिरूपम्
उपनेत्रैः सह
उपनेत्रेण विना
पुष्पनेत्रेण विना सः द्रष्टुं न शक्नोति. द्रष्टुं न शक्नोति.
शक्नोति. पञ्चमे
उपनेत्रात् विना.
हा सम्यक्.
सः द्रष्टुं न शक्नोति.
हा सम्यक्. द्रष्टुं न शक्नोति. अस्तु. मालती भगिनी वक्तुम् इच्छति वा? नो चेत् नास्ति चिन्ता.
I'll be mute.
अस्तु अस्तु भगिनि, चिन्ता मास्तु, चिन्ता मास्तु. अस्तु शारदा भगिनी पुनः.
पादरक्षां विना सा चलितुं न शक्नोति.
सम्यक्.
पादरक्षया विना सा चलितुं न शक्नोति.
सम्यक्.
चतुर्थी भगिनि.
चतुर्थी न, पञ्चमी. पादरक्षायाः विना.
पादरक्षायाः विना सा चलितुं न शक्नोति.
सम्यक्. सविता भगिनी अग्रे.
आं भगिनि. आसन्दं विना एषः उपवेष्टुं न शक्नोति. आसन्देन विना एषः उपवेष्टुं न शक्नोति. आसन्दात् विना एषः उपवेष्टुं न शक्नोति.
सम्यक् सम्यक्. सन्ध्या भगिनी.
दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति. दन्तान् विना.
सम्यक्. दन्तान् विना
वृद्धः चर्वणं कर्तुं न शक्नोति. दन्तेभ्यः विना वृद्धं चर्वणं कर्तुं न शक्नोति.
दन्तेभ्यः विना वृद्धः चर्वणं कर्तुं न शक्नोति. अस्तु. अम्ब अग्रे.
आत्मविश्वासः सः.
नो अत्र विना विना
आत्मविश्वासः विना.
सो अत्र अम्ब द्वितीया विभक्ति तृतीया विभक्ति अपि च पञ्चमी.
आत्मविश्वासेन सह विना सह कार्यं न करोति.
सम्यक्.
आत्मविश्वासः विश्वासेन विना सह कार्यं न करोति.
विश्वासेन विना तृतीया अभवत्, इदानीं द्वितीया. द्वितीया सर्वत्र मकारः भवति, अम् इति.
आत्मविश्वासं विना सः कार्यं न करोति. आत्मविश्वासात्
सम्यक्.
सः कार्यं न विना सः कार्यं न करोति.
सम्यक् सम्यक्. धन्यवादः. शारदा भगिनी.
आं भगिनि. कार्यानेन विना कार्यानं विना धनिकः सञ्चारं न करोति. कार्यानेन विना धनिकः सञ्चारं न करोति. कार्यानात् विना धनिकः सञ्चारं न करोति.
धन्यवादः. अस्तु अग्रे सविता भगिनी.
आं भगिनि. कूर्चं विना चित्रकारः चित्रं न लिखति. कूर्चेन विना चित्रकारः चित्रं न लिखति. कूर्चात् विना चित्रकारः चित्रं न लिखति.
धन्यवादः. सन्ध्या भगिनी
घटीं विना द्वितीया सः कुत्रापि न गच्छति घट्या विना सः कुत्रापि न गच्छति घट्याः विना सः कुत्रापि न गच्छति
सम्यक् सम्यक् अस्तु अम्ब पुनः
धनं विना जनाः जीवनं न कुर्वन्ति जनेन विना जनाः जीवनं न कुर्वन्ति जनात् विना जनाः जीवनं न कुर्वन्ति
सम्यक् सम्यक् अस्तु अग्रे अस्तु शारदा भगिनी करोति अत्र इकारान्तपदं पुल्लिङ्गे नपुंसकलिङ्गे न भवति स्त्रीलिङ्गे या भवति अतः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति ज्ञानम् आवश्यकं खलु अस्तु शारदा भगिनी
अग्निं विना
आम्
ऐन्द्रजालिकः दीपं ज्वालयति
अस्तु ऐन्द्र ऐन्द्रजालिकः
ऐन्द्रजालिकः दीपं ज्वालयति
ऐन्द्रजालिकः इत्युक्ते मेजिशियन्
अग्निना विना ऐन्द्रजालिकः दीपं ज्वालयति
पञ्चमी षष्टि समानरूपं सो इट् बिकम् अग्नेः
अग्नेः विना ऐन्द्रजालिकः दीपं ज्वालयति
सम्यक् सविता भगिनी शय्या इति स्त्रीलिङ्गपदम्
शय्यां विना अपि निर्धनं निद्रां करोति
शय्यां विनापि निर्धनः निद्रां करोति सम्यक् भगिनि शय्यया
विना अपि निर्धनः निद्रां करोति
सम्यक् पञ्चमी एवं भवति आकारान्त शय्या
शय्यायाः
अत्र पञ्चमी षष्टि समानरूपं शय्यायाः वर्णः इति वयं चिन्तयामः चेत् पञ्चमी अपि समानरूपम् इति भवति
शय्यायाः विना अपि निर्धनः निद्रां करोति
सम्यक् सन्ध्या भगिनी
आहारं विना मुनिः जीवति आहारेण विना मुनिः जीवति आहारात् विना मुनिः जीवति
सम्यक् अम्ब
लोकायनं विना नगरजीवनं न भवति लोकायानेन विना नगरजीवनं न भवति लोकाया यानात् लोकयानात् विना नगरजीवनं न भवति.
सम्यक्. लोकयानं लोकयानेन लोकयानात्. सम्यक्. शारदा भगिनी अन्तिम.
अन्यसाहाय्यं विना एव सः महत् कार्यं साधितवान्.
सम्यक्.
अन्यसाहाय्येन विना एव सः महत् कार्यं साधितवान्. अन्यसाहाय्यात् विना एव सः महत् कार्यं साधितवान्.
Masculine neuter is very easy, Bhagini. Feminine is tough.
The feminine also, we just have to know it is ya. Tavateva. So, atra, strilinga asti che, shashti vibhakti rupam jani mahache panchami api samanam eva. Gauryaha patihi, ramayaha, sitayaha, iti जानीमः चेत् पञ्चमी अपि समानमेव. नूतनपदानि इकार उकार एव. अत्रापि एहे ओहो इति भवति. इकार अस्ति चेत् एहे, उकार अस्ति चेत् ओहो इति भवति.
भगिनि, वन् स्माल् रिक्वेस्ट्. कुड् यु कैण्ड्लि रिपीट् द रूल् फार् लैक् बारिना. When is it N and when is it N? I mean, there is which of the I keep forgetting the rule, Bhagini.
So I think I have it written down. Let's see if I can find. Okay, ek nimisha. I think. अस्तु, अत्र पश्यतु. उदाहरणं रेफा. रेफा अस्ति चेत् रेफा अस्ति चेत् र. षकारः ऋकारः. ऋकारः एतानि अक्षराणि सन्ति चेत् नकारः णकार भवितुम् ऐ मीन् इट् केन् हेपन् इति. Okay, it's not a must iti nasti, arhasi iti. Sarve, okay, and some letters block. Iti te bhadakam karoti. Kechana aksharani bhadakam na karoti. Teke, sarve swaraha bhadakam na karoti. Udahananta ra iti asti, ra. अनन्तरं मा अस्ति परन्तु ण भवति. इत्युक्ते र इति अस्ति, र इत्युक्ते रेफा. रेफा इति अक्षरस्य अनन्तरम् आ अस्ति. आ इति स्वरः, दीर्घ वा ह्रस्वः वा. अपि च हयव. हयव ख वर्ग फ वर्ग अस्ति चेत् बाधकं न भवति. म इति प प भ भ म. म इति प वर्गे अस्ति, अतः नकारः णकारः भवति. एव एवमेव कृष्णः इति अस्ति चेत् ऋ ऋ न षकारः. अत्र षकारस्य प्रभावः अस्ति. षकारः साक्षात् न अस्ति, अतः न भवति कृष्ण. ऋकारः पितॄणाम्, अत्रापि ऋकारः अस्ति न. परन्तु रेफा षकार ऋकार अपि च नकार द्वयोः मध्ये च वर्गः, ट वर्गः, त वर्गः, ल श स एतानि अक्षराणि आगच्छन्ति चेत् नकारः नकारः एव भवति. उदाहरणं महाराजेन एव र इति रेफा परन्तु मध्ये च वर्गः अस्ति अतः नकारः एवमेव तिष्ठति ण न भवति अत्र पश्यामः चेत् राहुणा नकारः ण भवति राहुणा इति भवति किमर्थं ह इति बाधकं न करोति I'll send this sheet.
Oh, okay, Bhagindari, very useful. Just to understand this, Bhagini, this Refa, which means all these letters that you have told us about, R, H, and all that, can occur anywhere in the word. Does not necessarily need to be the last letter, right?
No.
And what negates this are the Ch, Varga, T, Varga, T, Varga, letters.
Api cha la sha sa.
It has to come after the Refa letter.
It has to be between the Refa Shakara Rukara and Nakara.
Okay. If it comes ahead of that, it loses its effect basically. Hypothetically, if we had a word like Mahajara instead of Maharaja, it would be Mahajarena.
Samya.
Got it, Bhagini. Thank you.
Dhanyavada. So, atra kechana, kanichana udaharanani santi. Varta lapena atra va r asti. Rukara. That is, repha. Parantu, अनन्तरं त अस्ति ल अस्ति फ अस्ति फ इति बाधकं न करोति परन्तु ल अस्ति अतः बाधकं करोति त अपि अस्ति त अपि बाधकं करोति एकम् अक्षरं बाधकं करोति चेत् अपि नकारः तथा एव भवति अन्य नियमः अस्ति नकारः एवम् अस्ति चेत् नकारः एव भवति ण न भवति
लैक् राजन्
राजन् सम्यक् भगिनि राजन् 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 एव राजन् न भवति परन्तु अत्र च वर्गः अपि अस्ति राजन् च वर्गः अपि अस्ति राज च च ज ज च वर्गः अपि अस्ति अतः न भवति अस्तु अग्रे गच्छामः वा अस्तु उत्तमप्रश्नः भगिनि तृतीयाविभक्तिरूपे एव तथा भवति प्रश्नः अस्तु अग्रे अस्ति हेतुवाचकः हेतुवाचकः इत्युक्ते कारणम् उदाहरणार्थं किमर्थं सः न आगतवान् प्रयाणेन अस्ति प्रयाणकारणेन अतः न आगतवान्
वी केन् से बिकास् आफ्
बिकास् आफ् यः शब्दः कारणवाचकः इत्युक्ते हेतुवाचकः भवति तस्य तृतीया विभक्ति भवति उदाहरणार्थं मम आगमनेन सः सन्तुष्टः आगमनम् इति वयं जानीमः कीदृशपदं भाववाचकपदम् इति वदामः भाववाचकपदम् यत्र विभज्यप्रयोगः अस्ति तत्र भाववाचकपदम् आगच्छति आगमनम् अन्य किं पठनं गमनम् इत्यादि सो अत्र आगमनेन किमर्थं सः सन्तुष्टः अस्ति? मम आगमनेन सः सन्तुष्टः अस्ति. अहम् आगतवान् अथवा अहम् आगतवती, तत् कारणेन सः सन्तुष्टः अस्ति इत्यपि वक्तुं शक्नुमः. परन्तु मम आगमनेन सः सन्तुष्टः अस्ति. अस्तु, अभ्यासः. अधस्तनकोष्टकस्य साहाय्येन पूर्णानि वाक्यानि रचयत. उदाहरणमस्ति वा अत्र? एतदेव उदाहरणम्. उदाहरणम्, एतया वार्तया. अस्तु, एतया वार्तया तस्य कोपः प्रवृद्धः. एतया वार्तया, अवगच्छति वा कथं करणीयम् इति? एतया वार्तया तस्य कोपः प्रवृद्धः. अत्र प्रवृद्धः इति अस्ति चेत् तस्य कोपः प्रवृद्धः. अस्तु, अन्यत् उदाहरणं कुर्मः वा? एतादृशं चिन्तनं मनः कलुषितं. कथं वदामः वयम्?
एतादृशेन चिन्तनेन तस्य मनः कलुषितम्.
कलुषितम्. अत्र वयम् अन्यत् एकमपि योजयितुं शक्नुमः. कलुषितम् अभवत्, कोपः प्रवृद्धः आसीत् इत्यादि. परन्तु नो चेत् अपि सम्यक् एव. अस्तु, अग्रे का वदति
भगिनी? मे ऐ टेक् दिस् आपर्चुनिटि टु आस्क् यू फर् दट् क्लारिफिकेशन् भगिनी, आन् एतादृशम् एण्ड् तादृशं, द डिफ़्रेन्स्?
नो, अत्र ए अस्ति चेत् एतादृशं, ता अस्ति चेत् तादृशं, तावदेव.
वाट् डस् इट् मीन्? लैक्
दिस् टैप्
मादृश
सो अत्र दृश, ईदृश, तादृश, कीदृश, दीस् आर् द मूलरूपाणि. दृश मीन्स् दिस् टैप्.
ओके, ओके. मादृश मीन्स् वाट् भगिनि?
लैक् मी, लैक् मी.
ओ, ऐ सी. ओके, ओके. धन्यवादः भगिनि.
धन्यवादः. अस्तु, सो अत्र एतादृशं चिन्तनम्, अत्र चिन्तनम् इति नपुंसकलिङ्गपदम्, अतः एतादृशं चिन्तनम्. परन्तु वार्ता इति अस्ति चेत् कथं भवति?
वार्तया.
परन्तु मम प्रश्नः, एतादृश इति पदं कथं परिवर्तनं भवति?
एतादृशी,
एतादृशी वार्ता, एतादृशी वार्ता इति भवति. अत्र तृतीयाविभक्तिरूपं कथं भवति भगिनि?
एतादृश्या वार्तया.
एतादृश्या वार्तया. दृशी ईकारान्तपदम्, अतः या, दृश्या. वार्ता आकारान्तपदम्, अतः वार्तया इति भवति. एतादृश्या वार्तया इति भवति. अत्र सो एवमेव पुल्लिङ्गः अस्ति चेत् कथं भवति? अविवेकः. अविवेकेन. अत्र एतादृशः अविवेकः इति भवति. एतादृश इति पदं स्वीकृत्य अविवेकः इति वर्णनं कुर्मः चेत् एतादृशः अविवेकः. तृतीया विभक्ति, एतादृशेन अविवेकेन. अवगच्छति वा सन्ध्या भगिनी?
आं भगिनि, धन्यवादः.
धन्यवादः. अस्तु अस्तु, अग्रे का वदति? न जानामि. एतादृशेन चिन्तनेन मनः कलुषितम् अभवत् अथवा कलुषितम्. अस्तु अग्रे सविता भगिनी करोति वा अविवेकः?
आं भगिनि, अविवेकेन महती विपत्
विपत् अभवत्
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 वाट्स् द मीनिङ्ग् आफ् दिस् अविवेकेन महती विपत् महती विपत् अभवत्
विपत् अभवत्. सो अत्र अविवेकः इति पदस्य अर्थः कः?
Without thinking.
Not sensible. Not sensible.
Not sensible. Samyak chintanam nasti. Iti karanena. Karanena mahati vipat asit abhavat.
Oh.
Vipat is the strilinga pada.
Accident.
Accident.
Vipati.
Vipat. Okay. Vipat. So vipat is the strilinga pada. Ataha mahati. Mahati vipat abhavat. So we can add abhavat for clarity. सन्ध्या
भगिनी
मार्गे पतितः अत्रापि क प्रत्यय बालकः पतितः अहमपि पतितः एव अम्ब
दैवानुग्रहेण उपायः न जातः.
सम्यक्. दैवानुग्रहेण अपायः
न जातः.
अस्तु सम्यक्. शारदा भगिनी. So we go to the rule. Okay. Hakara asti chet na bhavati. Grahena apayah na jatah. Astu. Agre Sharada bhagini.
Kathanena tasyana kimapi prayojanam.
कथनेन न किमपि प्रयोजनम् अथवा किमपि प्रयोजनं न किमपि प्रयोजनं कथनेन. सविता भगिनी आगमनम्
आगमनेन सर्वे तूष्णीं स्थितवन्तः. आगमनेन सर्वे तूष्णीं स्थितवन्तः
इत्युक्ते अन्य कोऽपि आगच्छति तस्य आगमनेन सर्वे तूष्णीं स्थितवन्तः. सो अत्र कथनं आगमनम् इत्यादीनि पदान् नाम अस्ति भाववाचकं. भाववाचकमस्ति चेत् ततः पूर्वं षष्टिविभक्तिरूपं भवति. मम षष्टिविभक्ति अन्यकं धावनं मम आगमनेन तस्य आगमनेन इति. अग्रे सन्ध्या भगिनि.
आरोग्येन कृषः
तावदेव.
अनारोग्यम्
अनारोग्यम्
I
was also wondering, Bhagini. Anarogya.
That's actually anarogyena svishaha. Okay.
Yeah. I was trying to figure out why they are saying like that. Also, anarogyena svishaha. So atra nava nava anarogyena athava anarogyena kim bhavati
rogyena.
So atra aksharam kim iti pashyamah. Repa asti
kavarga ya
gakarah asti yakarah asti.
So it means
no, more than one. O iti badakam na karoti. Ka vargaha. Badakam na karoti. Ha yav. Ya api badakam na karoti. Ataha na bhavati. Anarogye na. Agre, Amba?
शिरोवेदेन
कार्यालयं न गतः. सो अत्र आकारान्त स्त्रीलिङ्गपदम् एन न भवति. एन इति पुल्लिङ्गे नपुंसकलिङ्गे एव भवति.
शिरोवेदेन
कार्यालयं कार्यालयं न गतः. साधारणतया एतादृशवाक्यं न पश्यामः खलु. शिरोवेदनया कार्यालयं न गतः. शिरोवेदना कारणेन, परन्तु एवमपि वक्तुं शक्नुमः. शिरोवेदनया न गतः. अस्तु, अग्रे शारदा भगिनी.
अग्निस्पर्शेन हस्तः दग्धः.
हस्तः दग्धः. अग्निस्पर्शेन हस्तः दग्धः. सो अत्र नव नव अत्र एव अस्ति. अग्नि सो अत्र रेफा अस्ति, शकार अस्ति. शकार इति बाधकं करोति वा न वा? करोति. अतः न भवति. अग्निस्पर्शेन एव. प्रश्नः अस्ति वा? सो अत्र कारणम् अस्ति चेत् तृतीयाविभक्तिरूपं भवति. अस्तु, अग्रे पश्यामः. प्रयाणसमये यत् वाहनम् उपयुज्यते तत् प्रयाणसाधनम् इति भवति. साधनमस्ति चेत् तृतीया विभक्ति. द्विचक्रिकया विद्यालयं गच्छति. अधः सूचितानां त्रयाणां सूच्यशब्दानां साहाय्येन वाक्यानि रचयत. रामः कार्यानेन मैसूरुनगरं गच्छति. बहु सुलभः खलु? बहु सुलभः. अस्तु, सविता भगिनी.
सीता त्रिचक्रिकया
गृहं गच्छति. सम्यक्, द्विचक्रिकया. सम्यक्. अस्तु, अग्रे सन्ध्या भगिनि. सन्ध्या भगिनी.
आम् भगिनि. चिन्मया चिन्मयानेन
चिन्मयः
ओ सारी सारी चिन्मय ओके
आमाम्
चिन्मयः बैक्यानेन कार्यालयं गच्छति
बैक् बैक् यानेन कार्यालयं गच्छति सो अत्र यानम् इति वाहनम् इति अनुमानं बैक् यानेन अपि च स्कूटर् यानेन कार् यानं बस् यानमपि वदन्ति विमानं विमानमेव अस्तु अम्ब जनाः
लोकयानेन गृहं गच्छति
सम्यक् लोकयानेन गृहं गच्छति अस्तु अग्रे शारदा भगिनी
वयं सुखयानेन ग्रामः गच्छामः
सो परन्तु अत्र ग्रामं
वयं सुखयानेन ग्रामं गच्छामः
ग्रामं गच्छामः सुखयानम् इत्युक्ते लैक् लग्जरि कम्फर्ट् कार् अस्तु सविता भगिनी
प्रयाणिकाः विमानं विदेशः प्रयाणिकाः प्रयाणिकयाः
प्रयाणिकाः कर्तृपदं तत्र परिवर्तनं न भवति मध्ये किमस्ति तदेव परिवर्तनं करोतु
प्रयाणिकाः विमानेन विदेशः
गच्छति एव
गच्छन्ति
विदेशं गच्छन्ति
विदेशं गच्छन्ति प्रयाणिकाः विमानेन विदेशः गच्छन्ति
विदेशं गच्छन्ति
विदेशं गच्छति
द्वितीया विभक्ति आगच्छति खलु गणे विदेशं गच्छन्ति अस्तु सन्ध्या भगिनि
आरक्षकाः जीपयानेन ऐ कीप् गेटिङ्ग् वेहिकल्स् भगिनि
आम् आम् सर्वत्र तथा एव कोलाहलस्थलं गच्छ आरक्षकाः जीप् यानेन कोलाहलस्थलं गच्छन्ति अम्ब
एते मेटाडोरयान् तिरुपतिः एतया
न न न एते एव
एते मेटाडोरयानेन तिरुपति गच्छन्ति
तिरुपतिं गच्छन्ति अस्तु अग्रे शारदा भगिनी
ग्रामीणाः नौकया तरन्ति
नौकया तरन्ति ग्रामीणाः नौकया तरन्ति सो अत्र अपि ण अस्ति किमर्थम् इत्युक्ते पवर्गः प फ भ भ म ग्रामीणाः ण अस्तु अग्रे सविता भगिनी
भक्ताः रैल् यानेन मथुरां गच्छन्ति
मथुरां गच्छन्ति सम्यक् मथुरां गच्छन्ति अस्तु सन्ध्या भगिनी
राजा रथेन मन्दिरं गच्छति
रथेन अत्र अर्थवर्गः अस्ति बाधकम् अतः ण न भवति न एव रथेन सम्यक् अग्रे गच्छामः अन्यविषयः अस्ति यदा वयं किमपि क्रीणीमः तदा यत् धनं दीयते यत् धनं वयं दद्मः तस्य तृतीया विभक्ति भवति उदाहरणम् अहं दशरूप्यकैः एकां लेखनीं क्रीतवान् दशरूप्यकैः इति तृतीयाविभक्तिरूपं भवति दशरूप्यकं दशरूप्यकानि इति अस्तु टिप्पणीमपि पश्यामः ज्ञानम् इति यद्यपि सङ्ख्यया सह समानः निराकृतः तथापि नवरस किमपि नास्ति अस्तु अभ्यासः अधः कतिभिः रूप्यकैः कतिभिः कति इति पदमस्ति खलु गणनं कर्तुं शक्नुमः कतिभिः रूप्यकैः किं क्रीतम् इति सूचितम् अस्ति तदाधारेण वाक्यानि रचयत उदाहरणम् अष्टरूप्यकाणि पुस्तकम् अहम् अष्टरूप्यकैः एतत् पुस्तकं क्रीतवान् इति वाक्यं भवति
शतरूप्यानि सूतः
अहं शतरूप्यकैः स्यूतं
खरीदामि
क्रीतवान् क्रीतवती क्रीतवान् अथवा क्रीतवती सो अत्र वाक्यमस्ति अहम् अष्टरूप्यकैः पुस्तकं क्रीतवान् एतत् पुस्तकम् अथवा पुस्तकं क्रीतवान् एवमेव वाक्यम्
अहं शतरूप्यकाणि रूप्यकैः स्यूतः क्रीतवती
स्यूतं क्रीतवती
स्यूतं क्रीतवती
अहं शतरूप्यकैः स्यूतं क्रीतवती अस्तु अहं किमपि क्रीतवती एवमेव भवति वाक्यम् अस्तु अग्रिमं करोति वा
अहं द्वादशरूप्यानि
रूप्यकैः
द्वादशरूप्यकैः किलोमीटर् शर्करा क्रीतामि
शर्करां क्रीतवती अस्तु अत्र किमपि वस्तु लेखनीयम् अस्तु शारदा भगिनी
अहं पञ्चाशत्
So we can say it in two ways, Bhagini. We can go from Vamataha Gachamaha Atava Dakshinataha. Dakshinataha Gachamaha Chet Pratamam Panchashat Adhika
Adhika
Trishat Rupyakaihi. Iti Vadamaha. अहं पञ्चाशदधिक पञ्चाशत् एव भगिनि
पञ्चदश फिफ्टीन्
सो अत्र पञ्चाशत् अधिक शत् आक्चुलि इट् इस् शत् But because we have the A after that, this becomes soft. This becomes D. Panchashatadika. Panchashatadika. Shatarupyakaihi Shatikam Kritavati.
Panchashat Adhika Trishat Rupyakaihi.
That is 50 more than
300. If you tell from left to right.
Vamataha Vadamaha Chet Trishat Uttara Panchashat Rupyakaihi.
Trishat Uttara Panchashat Rupyakaihi. What is Uttara, Bhagini?
Uttara means above or in addition to, like that.
Uttaram Uttarava, or will it be? Likami, Bhagini.
इदानीं पृच्छतु भगिनि
लिखामि
अस्तु 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 एकनिमिषं
लिखति वा
ओके त्रि शतोत्तर त्रिशतोत्तर पञ्चाशत्
रूप्यकैः
पञ्चाशत् रूप्यकैः
अहं त्रिशतोत्तर पञ्चाशत् रूप्यकैः पञ्चाशत् रूप्यकैः शाटिकां क्रीतवती
क्रीणामि क्रेष्यामि किमपि अस्तु सो वयं श्रुतवन्तः खलु अष्टोत्तरशत अष्टोत्तरशतनामा खलु सो पञ्चाशदुत्तरशतं त्रिशतम् इवन् दट् वि केन् से
For both ways, instead of adhika, we can use both ways.
Uttara.
Panchoshat uttara trishata or trishata uttara panchashat.
So we can add from the left or from the right. Vamatahava, dakshinatahava, katrishata. Astu. Agre, kim asti? Sandhya Bhagini, kalo? Sandhya Bhagini.
Aham. पञ्चाशतधिक सप्तदशरूप्यकैः उत्पीठिकां क्रीतवती
सम्यक् उत्पीठिकां क्रीतवती
अथवा सप्तदशोत्तर पञ्चाशत्रूप्यकैः अहम्
उत्पीठिकां क्रीतवती अस्तु सम्यक् एव अस्तु अम्ब अम्ब वदति वा अम्ब म्यूट् मध्ये अस्ति वा
त्रिशत् रूप्यकैः कर्तरी कर्तव्यां
कर्तरीं
कर्तरीं क्रीतवती
क्रीतवती सम्यक् कर्तरीं क्रीतवती अस्तु अग्रे अग्रे गच्छामः वा
भगिनि वेन् वी से पञ्चाशतोत्तरत्रिशत और् त्रिशत् 300 should be trishat or trishata?
Trishata rupyakai.
Oh, okay. Tell me what.
Adre, alamukhi shabdaha asuche, tatra api tritiya vibhakti rupam bhavati. Nishedhartakam alam. निषेधार्थक इत्युक्ते स्टाप् इति अर्थे निषेधार्थकः निषेधम् इत्युक्ते संथिङ्ग् नेगेटिव् खलु प्रोहिबिटेड् प्रोहिबिटेड् अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति उदाहरणार्थं कोलाहलं कुर्वन्ति You want them to stop. Alam kola halena. It. Paranto, pariyapta attaka shabda. Iti yukte artham. Artham iti pariyaptam. Iti arte alam shabda ha asti che tatra chaturthi vibhakti rupam bhavati. Udaharanartham, भीमः अपि च दुर्योधनः युद्धं कुरुतः तत्र भीमस्य शक्तिः पर्याप्तमात्रम् अस्ति इत्युक्ते तं पराजेतुं पर्याप्तमात्रं शक्तिः अस्ति अतः तत्र अलम् इति पदं शक्तिरूपेण आगच्छति इत्युक्ते भीमस्य किं वदामि भीमस्य एकनिमिषं लेट् मी थिङ्क् भगिनि भीमस्य शक्तिः पर्याप्तमात्रम् अस्ति तत्र चतुर्थीरूपं भवति चतुर्थी यत्र आगच्छति तत्र पश्यामः अस्तु इदानीं तृतीयरूपमेव पश्यामः उदाहरणार्थं बालाः तूष्णीं तिष्ठन्तु अलं कोलाहलेन इति अर्थे सर्वदा भवति अलम् अलम् इति अस्ति चेत् प्रोहिबिटेड् स्टाप् इति अर्थे स्टाप् कोलाहलेन पर्याप्तम् इति न स्टाप् इति अर्थे भवति सो अत्र पर्याप्तरूपेण वदामः चेत् चतुर्थी भवति तदेव मुख्य अंशः अत्र अभ्यासः आवरणान्तगते शब्देन अलं शब्दं योजयित्वा वाक्यानि रचयत आवरण अन्तर्गतेन अन्तर्गतेन इत्युक्ते अन्तः अस्ति आवरणान्तर्गतेन शब्देन अलं शब्दं योजयित्वा वाक्यानि रचयत उदाहरणं जल्पनम् अयि भगिन्यः अलं जल्पनेन अयं जल्पनेन एवमेव भवति अत्र तृतीया विभक्तिरूपं भवति जल्पनं जल्पनेन अलं जल्पनेन वाक्यम् आवश्यकं चेत् वदतु नो चेत् अलम् अतिविस्तरेण इति इत्युक्ते अन्य कोऽपि कथां विस्तरेण वदति अतः मम समयः नास्ति अलम् अतिविस्तरेण शीघ्रं वदतु अलम् अतिविस्तरेण इति वाक्यम् आवश्यकं चेत् वदन्तु, नो चेत् केवलम् अतिविस्तरेण इति अपि पर्याप्तम्। अस्तु, शारदा भगिनी।
अयि भगिन्यः अलं शोकेन।
अलं शोकेन।
इफ् ऐ वाण्ट् टु से श्रीमन् मीनिङ्ग् फार् गैस्, अयि विल् बि फार् मेल्स् आल्सो,
बोत् आल्सो। अयि श्रीमन् अलं शोकेन, सम्यक्। सविता भगिनी।
अयि भगिन्यः अलं साहसेन।
अलं साहसेन, साहसम् इत्युक्ते
साहसम् इस् ब्रेव्।
साहसम् इस् it must be something not desirable, hello,
not good. Yes, ma'am. I thought in Hindi it's called sahas, so I thought it's valorous.
Aham chintayami sahasam itte mandam mandam karyam karoti sahas. Astu, agre avivekita. Sandhya bhagini.
Ai bhaginyah
भगिनी, ओवर् रियाक्षन्, साहसम् ओवर् रियाक्षन्।
एवं वा, प्रायः भगिनि। अस्तु, अहं पश्यामि, कोशं पश्यामि।
If somebody gets over dramatic or over react, they say साहसं पण्णार।
ओ एवं वा, ओके, साहस अत्र अत्र नास्ति। साहस अस्ति, ओ साहसम् एव, सारि, ओके, साहस अड्वेञ्चर् इस् देर्, अड्वेञ्चर् टेमेरिटि इस् देर्, राबरि,
स्मार्ट् ओर् समथिङ्ग् लैक् दट् मे बि,
आक्ट् आफ् विलेज् प्लण्डरिङ्ग्, ऐ डोण्ट् नो वाट् दे मीन् हियर्।
Is it the positive or a negative connotation? It is definitely negative. We can say Ayi putraha, Alam sahasena. Alam sahasena. Telling the boy not to be so adventurous. Yeah, so it can be anything.
aham samyaktaya na janam. So we can assume anything, sahasam.
Maybe some risky tricks they perform, isn't it? Maybe,
yeah, probably. In that context. Oh, yeah. Astu. Sandhya Bhagini, Uttavati va, na va, na janami, na srutavati.
I'll speak,
Bhagini.
Ai bhaginyah, alam avivekitaya.
Avivekitaya. Astu, samyak. Amba? अलं धावनेन इत्युक्ते डोण्ट् रन्, स्टाप् रनिङ्ग्, अलं धावनेन। अस्तु, आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थानानि रिक्तानि स्थलानि पूरयत। अत्र किमपि नूतनविषयः नास्ति
भगिनि, सोरि, in the earlier one there is ai bhaginyah, that is in plural. Alam jalpanena is
it doesn't matter. Okay, okay. Dhanyavad. Ah, astu. So atra pachakah छुरिकया शाकं कर्तयति. किमपि नूतनविषयः नास्ति. अस्तु, शारदा भगिनी अग्रिमं करोति वा. अर्जुनः
अर्जुनः बाणैः कौरवान् मारितवान्.
बाणैः बाणैः कौरवान् मारितवान्. अस्तु, द्वितीयमपि करोतु भगिनि. महिला
महिला सम्मार्जन्या मार्जितवती.
सम्मार्जन्या मार्जितवती. अस्तु, सम्यक्. सविता भगिनी
वाक्यद्वयकारः अङ्कन्या मूर्छया च चित्रं लिखति.
अङ्कन्या पुनः वदतु भगिनि.
चित्रकारः
अङ्कन्या अत्र बहुवचनम् अस्ति खलु. अङ्कन्या इति एकवचनं, सम्यक्. बहुवचनं कथं भवति? सो अत्र मूलरूपं किम्? अङ्कनी खलु. पुनरेकवारं पश्यामः अत्र. सो अत्र ईकार लेखनी अङ्कनी गौरी इव अस्ति. अतः गौरीभिः गौरीभिः
अङ्कनीभिः
भगिनीभिः धेनुभिः. उकार ह्रस्व अस्ति चेत् ह्रस्वं, दीर्घ अस्ति चेत् दीर्घ. मति मतिभिः, हरि हरिभिः, गुरु गुरुभिः, वधू वधूभिः. केवलम् अकारान्तपुल्लिङ्गे अकारान्त नपुंसकलिङ्गे ऐः भवति. एवम् एवमेव सर्वनामपदे अपि ऐः भवति. अस्तु, चित्रकारः
अङ्किनीभिः चित्रं लिखति.
सो अत्र कूर्चः इति अस्ति.
कूर्चः
कूर्चः
पुलिङ्गः कूर्चेन च.
कूर्चेन इति एकवचनं. कूर्चेन कूर्चाभ्यैः
कूर्चैः कूर्चैः च चित्रं लिखति.
चित्रं लिखति. अस्तु, चित्रकारः अङ्कनीभिः कूर्चैः
च चित्रं लिखति.
चित्रं लिखति. अस्तु, सम्यक्. सन्ध्या भगिनी बहु ध्वनिः अम्बाये अहं म्यूट् कृतवती. अग्रे अन्म्यूट् करोतु. वदतु सन्ध्या भगिनी भवती.
एकवचनं भवती कया सह आगतवती.
सम्यक् सम्यक्. कया सह आगतवती. अत्र बहुवचनम् अस्ति चेत्
काभिः सह आगतवती.
काभिः सह आगतवती. सम्यक्. अम्बा
ह्यः भवान् जनन्या सह कुत्र गतवान्?
सम्यक्, जनन्या सह कुत्र गतवान्. इदानीं बहुवचनम् अस्ति चेत् कथं भवति?
ह्यः भवान् जननी सह कुत्र गतवान्?
जननीभिः सह.
जननीभिः सह कुत्र गतवान्?
जननीभिः सह कुत्र गतवान्. अस्तु, सम्यक् अस्ति. शारदा भगिनी
दुष्टः
सर्वैः सह कलहं करोति पुल्लिङ्गम् और् स्त्रीलिङ्गं सर्वाभिः सह कलहं करोति.
सम्यक्. सर्वाभिः सर्वैः सह. सम्यक्. अस्तु, इदानीं समयः अभवत्. वयं पुनः कुर्मः एतत् एतत् अभ्यासं पुनः कुर्मः. अभ्यास नम्बर्
किं
भगिनि?
You gave a very nice example yourself when you spoke a little while back of Prithviya Bhagini. Said, Aham samyaktaya na janami.
Samyaktaya na janami. Samyak. Samyaktaya na janami. Dhaniyavada Bhagini.
Thank you.
Dhaniyavada. Astu. Ashanti mantra muktva viramama. Om sarve bhavantu sukhinah.
सर्वे सन्तु
निरामया.
सर्वे भद्राणि पश्यन्तु. दुःखभाग् भवेत्. हरिः ओम्.
धन्यवादः. उषा भगिनी अस्ति वा? इदानीमेव पश्यामि. धन्यवादः.
I had a doctor's appointment, so I had to get ready.
Oh, astu, astu. Astu, bhagini.
But I was listening.
Uttama. Astu.
Dhanyavada.